चैद्रूप्यं जडरूपतां च दधतो कृत्वा विभागं द्वयोरन्तर्दारुण दारणेन परितो ज्ञानस्य रागस्य च भेदज्ञानमुदेति निर्मलमिदं मोदध्वमाध्यासिता शुद्धज्ञानघनौघमेकमधुना सन्तो द्वितीयच्युताः।